शाखागदा कोष्ठगदाश्च रोगा मर्मूर्ध्वसर्वावयवाङ्गजाश्च ये सन्ति तेषां न हि कश्चिदन्यो वायोपरं जन्मनि हेतुरस्ति विन्मूत्रपित्तादिमलाशयानां विक्षेपसङ्घातकरः स यस्माद् तस्यादिवृद्धस्य शमायनान्यत् वस्तिं विना भेषजमस्ति किञ्चित् तस्माच्चिकित्सार्थमिति ब्रुवन्ति सर्वां चिकित्सामपि भस्तिमेके।